इमन्नो अग्नमुपयज्ञमे हि पञ्चजामम् द्रुवृतम् सप्तदन्तम् असो हव्यवालुदनः पुरो राज्योगेव दीर्घम् दमासयुष्टाः अदेवाद्येव प्रददा गुहायम् प्रपश्य मानो अमृतत्वमेमि शिवम् यत्सम् दमसि भोजहामि स्वात्सख्यादरणीम् नाभिमेमि पश्यन्नन्यस्यादीतिम् मयाया हृतस्य राममि मे गुरूणि संसामि विप्रे असूराय सेवामयज्ञियाद्यज्ञियम् भागमेमि भक्तिस्तमा अगरमन्तरस्मिन्निन्द्रम् वृणानः पितरम् जहामि अग्निस्वमरो नस्तेच्च वन्दे वर्यावद्भाक्रमन्द्रमाम् ज्ञायन् निर्माया बुद्धे असूरा अभूमन्वम् च मा वरुणकामयासे ऋतेन राजन्नरेदम् विभिञ्जन् मम राष्ट्रस्याधिपत्यमेहि इदम् स्वरिदमिदा सभाममयम् प्रकाशमुर्वा अन्तरिक्षम् अनावभृत्नम् निरेहि सोमहविश्वासन्तम् हविषा यजाम कविः कवित्तादिविरूपमास जलप्रभूदेवरो नो निरवश्रेयते क्षेमम् कण्वानाजनायो न सिन्धावस्तास्य वर्णम् सुजायो परिभ्रति तास्य ज्येष्ठामिन्द्रियम् सजन्तेता जीमाक्षेति स्वधया मदन्तीः ीम् विशो न राजानम् वृणानाभी भत्सु भो अपवृत्रादतिष्ठन् विभत्सूनाम् सयुजम् हन्तमाहुरपाम् दिव्यानाम् सख्ये चरम् तम् अनुष्टुभमनो चक्षूर्यमानमिन्द्रन्यक्षः कवयो मनीषा